सरस्वती नमस्यामि चेतनां हृदि संस्थितां कंठस्थां पद्मयोनिं त्वां ऋकारां सुप्रियां सदा मतिदां वरदां चैव सर्वकामफलप्रदां केशवस्य प्रियां देवीं वीणाहस्तां वरप्रदां मन्त्रप्रियां सदा हृद्यां कुमतिध्वंसकारिणीं स्वप्रकाशां निरालम्बामज्ञानतिमिरापहां मोक्ष प्रियां शुभां नित्यां सुभगां शोभनप्रियां पद्मोपविष्टां कुंडलिनीं शुक्लवस्त्रां मनोहरां आदित्यमंडले लीनां प्रणमामि जनप्रियां ज्ञानाकरां जगद्वीपां भक्तविघ्नविनाशिनी इति सत्यं स्तुता देवी वागीशेन महात्मना आत्मानं दर्शयामास शरदिन्दुसमप्रभा वरं वृणीष्व भद्रत्वं यत्ते मनसि वर्तते प्रसन्ना यदि मे देवि परज्ञानं प्रयच्छ मे दत्तं ते निर्मलं ज्ञानं कुमतिध्वंसकारकम् स्तोत्रेणानेन मां भक्त्या ये स्तुवन्ति सदा नराः लभन्ते परमं ज्ञानं मम तुल्यपराक्रमाः कवित्वं मत्प्रसादेन प्राप्नुवन्ति मनोगतम् त्रिसंध्यं प्रयतो भूत्वा यस्त्विमं पठते नरः तस्य कंठे सदा वासं करिष्यामि न संशयः